इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्री नरेन्द्रमोदी अद्य देहल्याः जवाहरलाल नेहरू क्रीडांगणे प्रधानमन्त्री स्वनिधि परियोजनायाः लाभार्थिनः सम्बोधयिष्यति। कार्यक्रमावधौ प्रधानमन्त्री एकलक्ष संख्यकेभ्यः मार्ग वस्तु विक्रेतृभ्यः स्वनिधि योजनान्तर्गतं ऋणं वितरयिष्यति, येष् देहल्याः 5,000 लघु विक्रेतारोऽपि सम्मिलिताः सन्ति। श्रीमोदी दिल्ली मेट्रो इत्यस्य चतुर्थ चरणस्यापि आधारशिलां संस्थापयिष्यति। प्रधानमन्त्री नरेन्द्रमोदी ह्यः प्रधानमन्त्री सामाजिक उत्थान रोजगार आधारित जनकल्याण पीएम सूरज इत्यस्य राष्ट्रिय पटलस्य अनावरणं कृतवान्। अपि च वंचित समुदायानां 1,00,000 उद्यमिभ्यः ऋण सहायताम् अनुमोदितवान्। असौ दृश्य श्रव्य परान्तर्जालीय माध्यमेन अनुसूचित जाति निम्नवर्ग स्वच्छ कार्यकर्तृन् समेत्य विभिन्नानां सर्वकारीय योजनानां लाभार्थिभिः सह संवादं विहितवान्। एतस्मिन् कार्यक्रमे देशस्य 70+400 वंचित समूहानां विविध सर्वकारीय योजनानां प्रायशः 3,00,000 लाभार्थिनां प्रतिभागिता आसीत्। भूटान देशीयः प्रधानमन्त्री दाशोत् त्शेरिंग तोब्गे इत्येषः अद्यारभ्य भारतस्य 5-दिवसीय यात्रायाम् आयाति। अस्य वर्षस्य जनवरी मासे पदभारग्रहणानन्तरं तस्येयं प्रथमा वैदेशिकीय यात्रा वर्तते। विदेशमन्त्रालयेन कथितं यत् स्वीय यात्रावधौ भूटान देशीयः प्रधानमन्त्री राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया सह मेलनं करिष्यति। प्रधानमन्त्रिणा च नरेन्द्रमोदिना सह द्वैपक्षिक वार्तां विधास्यति। भूटान देशीयः प्रधानमन्त्री त्शेरिंग तोब्गे इत्येषः मुम्बई नगरं प्रत्यपि गमिष्यति। मन्त्रालयेन कथितं यत् भारत भूटान देशयोः सर्वेष् चरणेष् मैत्रीभाव समन्वययोः विश्वास सद्भावनयोः च पारस्परिक समन्वयने अनुकरणीय सम्बन्धाः सन्ति। भूटान देशीयस्य प्रधानमन्त्रिणः इयं यात्रा द्वयोरपि देशयोः सम्बन्धान् इतोऽपि सुदृढी करिष्यति। अद्य विश्व ब्रिक् दिवसः अस्ति। ब्रिक् स्वास्थ्यस्य विषये जनानां मध्ये जागरूकतां जनयितुं प्रतिवर्षं मार्च मासस्य द्वितीय गुरुवासरे एषः दिवसः आचर्यते। अस्मिन् वर्षे किडनी हेल्थ फॉर ऑल इति विषयः सुनिश्चितोऽस्ति। ब्रिक्कः शरीरस्य महत्वपूर्णेषु अंगेषु अन्यतमः अस्ति तथा च शरीरात् विषाणि दूरीकर्तुं साहाय्यं करोति, येन शरीरं सुस्थं स्वस्थं च भवति। आकाशवाणी इत्यनेन सह वार्तालापं कुर्वन् एम्स नवदिल्ली इत्यस्य नेफ्रोलॉजी विभाग प्रमुखः डॉ दीपांकर भौमिकः अवदत् यत् ब्रिक् विकारस्य केचन लक्षणानि पादौ स्थूलता, रक्तचापस्य वृद्धिः, हिमोग्लोबिन इत्यस्य न्यूनता, अस्थीनां दुर्बलताश्च सन्ति। सः जनान् ब्रिक् रोगस्य शीघ्रं ज्ञापनार्थं नियमितरूपेण स्वास्थ्य परीक्षां कर्तुं परामर्शम् अयच्छत्। हरियाणा राज्यस्य नवचितः मुख्यमन्त्री नायाब सिंह सैनी ह्यः विश्वासमतं विजितवान्। असौ साम्प्रतिके समये राजनीतिक घटनाक्रमाणाम् अनन्तरं एकस्मिन् विशिष्ट विधानसभा सत्रावधौ आयोजिते शक्ति परीक्षणे अद्य विश्वासमतं समधिगतवान् अन्ते क्रीडावार्तायां, महिला क्रिकेट प्रीमियर लीग इति प्रतिस्पर्धायां ह्यः सायं दिल्ल्याः अरुण जेटली क्रिकेट क्रीडांगणे डेहली कैपिटल्स दलं गुजरात जायंट्स दलं साम्मुख्यम् अकरोत्, यत्र गुजरात जायंट्स इति दलेन स्थापितं 17.1% धावनांकानां लक्ष्यं डेहली कैपिटल्स इति दलेन 13 कन्द्कक्षेपण चक्रेष्वेव तिस्राणां क्रीडिकाणां हानौ सम्प्राप्य क्रीडेयं विजितम् इति वार्ताः।